इमं विवास्वते योगं प्रोक्तवान् अहम् अव्यम् विवस्वान् मनवे प्राह मनोरिक्ष्वा कवे ब्रवीम् एवं परंपरा प्राप्तम् इमं राजर्षयो विदुः सकालेनेह महता योगो नष्ट परं तपा स एवायं मया तेद्य योग प्रोक्त पुरातना भक्तोऽसि मे सखा चेति रहस्यं एतदुत्तमम् अजोऽपि सन्नव्ययात्मा भूतानां ईश्वरोऽपि सन् प्रकृतिं स्वामधिष्ठाय सम्भवामात्ममायया यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे जन्मकर्मा च मे दिव्यम् एवं यो वेत्ति तत्त्वता त्यक्त्वा देहं पुनर्जन्म नेति मामेति सोऽर्जुन वितराग भय क्रोध मन्मयाम उपाश्रिता बहवो ज्ञानतपसा पूता मद्भावमागता ये यथा मां प्रपद्यन्ते तांस्तथे भजाम्यहम् ममावर्त्मानुवर्तन्ते मनुष्या पार्थ सर्वशा चातुर्वर्ण्यं मया सृष्टं गुणकर्म विभागशा तस्य कर्तारम् अपि मां विद्यकर्तारम् अव्ययम् तद्विद्धि प्रणिपातेना परिप्रश्नेन सेवया उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः।